अथ नवतितमं सूक्तम् षोडशर्चस्यास्य सूक्तस्य नारायण ऋषिः पुरुषो देवता प्रथमादिपञ्चदशर्चा मनुष्टुप् षोडश्याश्च त्रिष्टुप् छन्दसि सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नो यदन्नेनातिरोहति एतावानस्य महिमातो ज्यायांश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि त्रिपादोर्ध्व उदैत् पुरुषः पादोऽस्येहाभवत् पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्माद्विराळजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्त अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः तं यज्ञं बर्हिषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतं पृषदाज्यम् पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावो हजज्ञिरे तस्माज्जाता अजावयाः यत्पुरुषं व्यदधुः कतिथा व्यकल्पयन् मुखं किमस्य कौ बाहुका ऊरुपादा उच्येते ब्राह्मणस्य मुखमासीद् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यां शूद्रो अजायत चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षं शीर्षाद्यौ समवर्तत पद्भ्यां भूमिर्दिशश्रोत्रात् तथा लोकाङ् अकल्पयन् सप्तास्यासन् परिधयस्त्रिः सप्तसमिधः कृताः देवायद्यज्ञन्तन् भाना अबध्नन् पुरुषं पशुं यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः इति नवतितमं सूक्तम्।